अथ षडङ्गन्यासः। ॐ मनो जूतृजुपता मानस्य प्रियस्पतिर्जिज्ञमिमं तनोद्वरिष्ठं जज्ञपुं समिमं ददातु विश्वे देवास इह मादयन्तामों प्रतिष्ठा। ॐ हृदयाय नमः। ॐ अबोधिनिः समिधा जनानां प्रतिधेनुमिवायति मुखासं मा जपा इव प्रवया मुजिहानाः प्रवानवः शिश्रदेनाकमच्छ। ॐ शिरसि स्वाहा। ॐ मूर्धानन्दिवो अरतिं पृथिव्या वैश्वानरमृता जातमग्निं मा कविगुं सम्राजमतिथिं जनानामासन्नापात्रं जनयन्त देवाः। ॐ शिखाय वसट। ॐ मर्माणि ते वर्मणा छादयामि सोमस्वाराजा मृतेनानुवस्तां मा पुरोर्वरीयो वरुणसे कृणोतु जयन्तं त्वानुदेवा मदन्तु। ॐ कवचाय हुम्। ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात सम्बाह्व्यान्धमति सम्पतत्रैर्ध्या वा भूमि जनयन् देव एकाः। ॐ नेत्रत्राय वोषट्। ॐ मानस्तो केतनये मान आयुखि मानो गोखो मानो अश्वेकुरीरिका मानो धीरानुद्रभामिनो वदीर्य विकमन्तः सदमित्वा हवामहि। ॐ अस्त्राय फट्। ॐ ध्याये नित्यं मयि संरजति गिर्निभं चारुचन्द्रावतंसम् रत्नाकलपोज्ज्वलाङ्गं परशुमृगवराधीतिहस्तं प्रसन्नम् पद्मासीनं समन्तातिस्तुतममरगणीर्व्याघ्रकीर्तिं वसानम् विश्वाद्यं विश्वन्यं निखिलवयहरं पञ्चवक्रं त्रिनेत्रं। नमः पार्वतीपतये हर हर महादेव। अथ प्रथमोऽध्यायः। ॐ गणानां त्वा गणपतिगुं भवामहि प्रियाणां त्वा प्रियपतिगुं भवामहि निधीनां त्वा निधिपतिगुं भवामहि वसो मम आहमजानि गर्वधमा त्वमजासि गर्वधम्मा गायत्री त्रिष्टुप् जगति अनुष्टुप् पञ्चासः बृहत्तृष्णीया कपुसूचीभिः संयन्तु त्वा द्विपदा सा सदुपदा स्त्रिपदा चाश्चपदाः विछन्दा चाश्च सछन्दाः सूचीभिः संयन्तु त्वा तस्तोमाः सछन्दसा वृतः सा ब्रमारिखयः सप्त देव्याः पूर्वेकां पन्थामनुदृश्य धीरा अन्वारि वीरेरधियो नरस्मिन्न। ॐ जजाग्रतो दूरमुदेति देवं तदुसुप्तस्य तथैवेति दूरङ्गमञ्ज्योतिकाञ्ज्योतिरेकं तन्मे मनः शिव सङ्कल्पमस्तु। येन कर्माण्यपसो मनीकिणो जजे कृण्वन्ति विदधि उधीराः जदपूर्वं चमन्तः प्रजानान्तन्मे मनः शिव सङ्कल्पमस्तु जद्प्रजानमुत चेतो धृतिसज्योतिरन्तरमृतं प्रजासु चस्मानरिते किञ्चन कर्म क्रियते तन्मे मनः शिव सङ्कल्पमस्तु येनेदं भूतं भुवनं भविष्यत्परिगृहीतम् मृतेन सर्वं येन जज्ञस्तायते शब्दहूत तन्मे मनः शिव सङ्कल्पमस्तु यस्मिन् ऋजः सामजजो गुहे तस्मिन् प्रतिष्ठित रतनाभाविवारः तस्मिंश्चितगुं सर्वमोतं प्रजानान्तन्मे मनः शिव सङ्कल्पमस्तु शुभारतिरस्वानि वजन्मान्ध्यानि नीयते वीसुग्रीवाजिन इवारित्प्रतिष्ठं जलधिरजविषन्तन्मे मनः शिव सङ्कल्पमस्तु।
अथ द्वितीयोऽध्यायः। ॐ सहस्रशीरिखा पुरुखः सहस्राक्षः सहस्रपादः स भूमिगुं सर्वतः स्मृत्वा त्यतिष्ठदशाङ्गुलं पुरुखै वेदगुं सर्वं जदभूतं य च भाव्यं मा उतामृततमसि सा नो जदन्नेनातिरोहति एतावानस्य महिमातो जायास पूरुकः पादोऽस्य विश्व भूतानि त्रिपादस्यामृतं दिवि त्रिपादूर्ध्व उदयत्पुरुखः पादोऽसि हा भवत् पुनः ततो विभङ्ग्यग्रामसा
सनानसने अभीततो विराड जायत विराजो अधिपूरुखः सजातो अध्यर्य तपसा भूमिमतो पुरहात समाधिया सर्वहुतः संभृतम् ऋगदाद्यमापसंसासकैवायविया नारण्या ग्राम्याश्च तस्मादिया सर्वहुतरिचः सामानि जगनिरे छन्दांसि जगनिरे तस्माद्यजु तस्मादजायता तस्माद् स्वा अजायन्त जेकेचो वयादतः गावो हजगिरे तस्मात्तस्माजात अजावयः तं दद्यम्बरीकि प्रोक्षन् उरुकं जातमकृत तेन देवा अयजन्त साध्य ऋकयचेतत्पूर्वकं व्यददुः कतिदा व्यकल्पयन्नामुखं किं स्यासि किं बाहु किमूरुपाद उच्येते ब्राह्मणोऽस्य मुखमासीद् बाहुराजन्यः कृतः ऊरु तदस्य वैश्या पदव्यां सूत्रो अजायत चन्द्रमा मनसो जातसक्षोः सूर्यो अजायत श्रोत्राद्वायुः स प्राणः समुखनिरजायत नाभ्या आसीदन्तरिक्षकम् श्रेष्णाद्योः समवृतत पदव्यां भूमृदि सह श्रोत्रा तथा लोकान् अकल्पयन्नाजपुरुतेण हविका देवाजयमतन्वता वसन्तो स्यासि राज्यं ग्रीक्मजमः शरदविः सप्तास्यासन् परिदयस्त्रीः शब्दसमिधाः कृताः देवाजयन्तन्वान अवदनन् पुरुकं पशुम् जगनेन जगियमयजन्त देवास्मानि धर्माणि प्रथम न्यासन्नादेहनाकम् महिमानः सचन्त यत्र पूर्वे शाद्याः सन्ति देवाः अद्भ्यः संहृतः पृथिव्यैरसा च विश्वकर्मणः समवृतता गृहीतस्य त्वष्ट विदद्रूपमेति तन्मृतस्य देव त्वम जानमग्ने भेदाहमेत पुरुकं महन्तमादित्यवर्णन्तमसः परस्ताता तमेव विदित्वा किमृतुमेति नान्यः पन्था विद्यतीयनाय प्रजापतिसरति गर्वे अन्तर्जायमानो बहुधा विजायते तस्य जोनिं परिपश्यन्ति धीरा तस्मिन्नास्तत्रभुवनानि विश्व जो देवेभ्य आतपति जो देवानां पुरोहितः पूर्वो जो देवेभ्यो जातो नमो रुचाय ब्राह्महे रुचं ब्राह्मण् जनयन्तो देव अग्रे तद्ब्रुवन्नादस्त्वैवं ब्राह्मणो विद्यातस्य देवा असन्वसे श्रीशते लक्ष्मी सपत्न्यां बहोरात्रे पार्श्वे नक्षत्राणि रूपमस्विनो व्यातं मा इष्णन्निघाण ॐ महिघाण सर्वलोकं महिघाण हरि ॐ मा अथ तृतीयोऽध्यायः ॐ आसुः शिशानो भृखभो न भीमो घनघनः चोपणसर्खणीनाम् सङ्क्रन्दनो निमिखैकवीरः सततुंसेना अजयत्साकमिन्द्रः सङ्क्रन्दनेन निमिखेण जिष्णुना चित्कारेण ऋषवनेन जिष्णुना तदिन्द्रेण जयत तसहत्वं जुदो नर इकुहस्तेन वृष्णा स इकुहस्तेः स निखङ्गि भ्रवति सकुं सृष्टा सयुध इन्द्रो गणेन सकुं सृष्टादि सोमप वाहु सृदादिकृत तन्वा प्रदीता विरस बृहस्पती परिदीयारतेन रक्षोहा मित्रा अपवादमानः प्रबन्धन् सेनाः प्रमिणो जुधा जयन्नस्माकमेद्य वितारथा नामा बलविज्ञायस्तवीरः प्रवीरः सस्मान्वादी समान उग्रः अभिवीरो अभिसद्वासो जैत्रमिन्द्ररथमातिष्ठ गोविता गोत्रविदं गोविदं वज्रबाहु जयन्तमज्म प्रमिणन्तमोजस इमगुं सजाता अनुवीराय त्वमिन्द्रगुं सखायो अनुसगुं रमध्वम् अभिगोत्राणि सहसा गामानोदयो
वीरः सतमन्युरिन्द्रः सुशवनः पृतनाकारयोऽस्माकं सेन अवतु प्रयत्सु इन्द्र आसां नेत प्रियस्पतिर्दक्षिणा जजः पुरयेतु सोमः देवसेनानाम् अविवञ्जतीनां जयन्तीनां मरुतो जन्त्वग्रह्म इन्द्रस्य विष्णो वरुणस्य राजा आदित्यानां मरुतगुं सृतौ ब्रह्मा महामनसा भुवन जवानां गोपो देवानां जयतामुदसात उदरिखय मघवन्नाजुदान् सत्त्वानां मामकानामनांसि रुद्रभृत्रहन्वाजिनां वाजिनानुद्रथानां जयतां जन्तु गोखाः अस्माकमिन्द्रः समृते कुद्वजे कुस्माकं जायिकवस्ता जयन्तु अस्माकं वीरा उतरे भवन्त्वस्मा उदेवा अवताहवेभो अमेकां चितं प्रति लोभयन्ति गृहाणा धान्यपे परे अभिप्रेहि नृदः ऋत्सु सौकेरन्धे मित्रास्तमसः सचन्ताम् अवसृष्टा परापत सर्वे ब्रह्म सगुंसिते गचा मित्रा प्रपद स्वमामेकां कञ्चनोचिकः प्रेता जयता नर इन्द्रो वा सर्मजचतु उग्रावः सन्तु बाहवो नाद्रिया जता सत असोजासेना मरुतः परेकामवेति न ओजसा स्पर्धमान ताङ्गुहत तमसा पवर्तेन जथामि अन्यो अन्यन्न जानन्न जत्रमाणाः सम्पतन्ति कुमाराभिषिका इवातन्न इन्द्रो प्रियस्पतिरदितिः सर्मजचतु विश्वाः सर्मजचतु मर्माणि ते वर्मणा च दयामि सोमस्त्वा राजा मृतेन नुवस्ताम् उरोर्वरीयो वरुणसे किणोतु जयन्तं त्वा नुदेवा मदन्तु
अथ चतुर्थोऽध्यायः ॐ विभ्राट् बृहद्विवतु सौम्यं मर्वायुर्दधदज्ञपतावाभिहृतं मा वातजूतोजो अभिरक्षति त्मना प्रजाः उपोकपुरुधाभिराजति उद्यं जातवेदसन्देवं महन्ति केतवः ऋषे विश्वाय सूर्यं मा येनापावकचक्षसा भुरण्यन्तजना अनुपम् वरुणपश्यसि देव्या वधवर्जु आपतगुं रतेन सूर्य त्वच मधुवाजियगुं समञ्जाते तं प्रघ्नतायं येन चित्रं देवानां तं प्रघ्नता पूर्वथ विश्वतीमता ज्येष्ठता तिम्बरिकदगुं सर्विदं मा प्रतीचीनं मृजन दोऽसि धुनिमासु जयन्तमनुजासु वर्धसे अयं वेनश्चोदकृष्णिगर्वा ज्योतिर्जरायुरजसो विमाने इममपाकुं सङ्गमे सूर्यस्य शिशुन्न विप्रा मतिभिरिहन्ति चित्रं देवानामुदक धनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राजाव पृथिवी अन्तरिक्षकं सूर्य आत्मा जगतस्तस्तुकश्च आन इडा ब्रुविदते सुस्वस्ति विश्वानरः सविता देव एतु अपि जथा जुवानो मत्सथानो विश्वं जगदभिद्वे मनीखा जगद्यकच विद्रहानुदगा अभिसूर्यः सर्वन्तदिन्द्रदेवसे तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वमा आशिरोचनं मात सूर्यस्य देवत्वन्तन्महि त्वं मर्यातटोर्वितगुं सञ्जवार जदेदयुक्ता हरितः सदस्था दात्रात्रीवासस्तनुते सीमस्मे तन्मित्रस्य वरुणस्य विचक्षे सूर्योरूपं कृणुते योरुपस्थे अनन्तमन्यदृशदस्य पाजः कृष्णमन्यधरितः सम्भरन्ति बलवः असि सूर्यबड द्वितीयमः असि महस्ते सतो महिमापन्यस्य तेधा देवमः असि वटसूर्य सर्वसामः असि सत्रा देवमः असि मह्ना देवानां सूर्यः पुरोहितो विभुजोतिरदाभ्यं
ब्रह्म स्रायन्त इव सूर्या विश्वेदिन्द्रस्य वक्षता वसूनि जाते जनमान ओजसा प्रतिभागं नदी धिमा अद्यादेव उदिता सूर्यस्य निरगुंहसः विपरीता निरवद्याता तन्नो मित्रो वरुणो मा महन्तमदिति सिन्धुः पृथिवी उत द्योः आक्ष्णेन रजसा व्रतमानौ निवेशयन् नमृतं व्रत्यं च हिरण्येन सविता रतेन देवो जाति भुवनानि पश्यन्न। अथ पञ्चमोऽध्यायः। ॐ भू ॐ भुव ॐ स्वाहा। ॐ नमस्ते रुद्रमन्यव उतोत इखवे नमः वाव्यामुत ते नमः जाते रुद्रशिवा तनूरघोरा पापकासिनि दयानसन्वासन्त मया गिरिसन्त इचाकसीः जामिखुं गिरिसन्तास्ते विवर्चस वै शिवाङ्गिरित्रितां कुरु माही गुंसीः उरुखं जगता शिवेन वचसा त्वा गिरिसा च वदामसि यथा नः सर्वविजगद यस्मपुंसुमना असता अद्य वोचद दिवता प्रथमो देव्यो विकता अहिश्च सर्वाञ्जम्भयन् सर्वांश्च दातु धान्यो दराजीः परासु वा असौजस्ताम्रो अरुणौ तपब्रुः सुमङ्गलः जेचेन गुंरुद्रा अपि तु दिक्षुसृताः सहस्रसो वैका क्रीडयीमहि असौजो वस्रवति नीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुदाहार्जः दृष्टो मिटयाति नः नमोऽस्तु नीलग्रीवाय सहस्राक्ष यमीडुखे अथो जे अस्य सत्त्वानो हन्तीभ्यो करं नमः प्रभुञ्च धन्वनस्तमुभयोर्राज्ञोर्जाम्मा जासते हस्त इखवः पराता भगवोऽपाबीजं धनुः कपर्दिनो विसल्यो माण्वा उत अन्ये सनस्य जा इखव आपुरस्य निखङ्गतिः जातेः त्रिमीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयस्मया परिभुजा परिते धन्वनो हेतिरस्मान् वृणतु विश्वतः अतो जयिपुरिस्तवारे अस्मिन्नदीतम् अवदत्य धनुषवगुं सहस्राक्षशते कुदि निशीर्षशल्याना मुखासिवो नः सुमना भव नमस्त आयुधाय नातृताय तृष्णवे उभाभ्याम् उत ते नमो भाव्याम् तव धन्वने मानो महन्तमुतमानो अर्वतम् मान उक्षन्तमुतमानुक्षितम् मानो वदिः पितरम् मोतमातरम् मानः प्रियास्तन्नो रुद्ररीरिखः मानस्तो केतनये मान आयुखि मानो गोकुमानो अश्वेकुरीरिखः मानो वीरान्द्रभामिनो वदीर्यभिमन्तः सदमित्वा हवामहि नमो हिरण्यबाहवे सेनानि दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सपिञ्जराय त्रिकिमते पतीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो बब्लुसाय व्याधिने नानां पतये नमो नमो भवसेते जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूताय हन्ति वनानां पतये नमो नमो रोहितायश्च पतये वृक्षाणां पतये नमो नमो भुवन्तय वायुस्कृतयो खदीनां पतये नमो नमो मन्त्रिणि वाणिजाय कक्षाणां पतये नमो नम उचैर्गोकाय क्रन्दयति पतीनां पतये नमो नमः कृष्णाय तय धावते सत्त्वानां पतये नमो नमः सहमानाय नित्याधिनाभ्याधिनीनां पतये नमो नमो निखङ्गिणककुवायस्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निखङ्गिण इपुरिमते तस्कराणां पतये नमो नमः श्रीकायिव्योजिका कुसल्योमुष्णतां पतये नमो नमो श्रीमद्भ्यो नक्तञ्चरद्भ्यो विकृन्तानां पतये नमः नम उष्णीकिणे गिरिचराय कुरुञ्च पञ्चानां पतये नमो नमः
इकुमद्व्यो धन्वायव्यसवो
नमो नमः आतन्वादिभ्यः प्रतिददानेव्यसवो नमो नमः आयचर्व्यो सद्व्यसवो नमो नमो
निसृजद्व्यो विद्यद्व्यसवो नमो नमः स्वपद्व्यो जागद्व्यसवो नमो नमः सयानेभ्य आसीनेव्यसवो नमो नमश्चित्यो धावद्व्यसवो नमो नमः
सवाभ्या सवापतिव्यसवो नमो नमो स्वेभ्यो स्वपतिव्यसवो नमो नम आभ्यादिनीभ्यो विवेदन्तिव्यसवो नमो नम उणाविसृगुंहतिव्यसवो नमो नमो गणेभ्यो गणपतिव्यसवो नमो नमो व्रातेभ्यो व्रातपतिव्यसवो नमो नमो कृतेभ्यो कृतपतिव्यसवो नमो नमो विरूपेभ्यो विश्वरूपेभ्यसवो नमो नमः सेनाभ्यः सेनानिव्यसवो नमो नमो रथेभ्यो अरथेभ्यसवो नमो नमः चतुर्भ्यः संघृतिव्यसवो नमो नमो महद्भ्यो अर्वकेभ्यसवो नमः
नमस्तभ्यो रथकारेभ्यसवो नमो नमः तुलादिभ्यः कर्मारेभ्यसवो नमो नमो निकातेभ्यः कुजिष्ठेभ्यसवो नमो नमः स्वनिभ्यो मृगैभ्यसवो नमो नमः स्वभ्यः स्वपतिभ्यसवो नमो नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च सितिकण्ठाय च नमः दिने च पिपुकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिरःपृष्ठाय च नमो मेदुष्टमाय चेकुमते च नमो अर्वाय च वामनाय च नमो प्रियते च वर्गीयसे च नमो वृताय च सवृते च नमो ज्ञाय च प्रथमाय च नमः आसवैचारिराय च नमः सीज्ञाय च सीव्याय च नमः ओर्म्याय च वसन्याय च नमो नादीयाय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च अपरजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च पुत्न्याय च नमः सोभ्याय च प्रतिसर्जाय च नमो याम्याय च चेम्याय च नमः श्लोक्याय च वसन्याय च नमः ऊर्जाय च कल्याय च नमो वन्याय च कक्षाय च नमः सर्वाय च प्रतिसर्वाय च नमः आसुकेणाय च सुरताय च नमः सूराय च वेदिने च नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूकिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमिषाय च नमो निकङ्गिणे जेकुदिमते नम दीक्षिणे कवये चायुधिने च नमः स्वायुधाय सुगन्वने च नमः श्रुत्याय च पत्याय च नमो काट्याय च नीत्याय च नमः कुल्याय च सरस्याय च नमो नादीयाय च वैसन्ताय च नमः रूप्याय च वट्याय च नमो भीग्र्याय च तप्याय च नमो मेघ्याय च विद्युत्याय च नमो वर्क्याय च वर्क्याय च नमो व्याय च रेग्म्याय च नमो वास्तव्याय च वासुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः साङ्गवै च पशुपतये च नमो उग्राय च भीमाय च नमो ग्रीवदाय च दूरीवदाय च नमो अन्त्रे च आन्यसे च नमो केभ्यो हरिकेशेभ्यो नमस्ताराय नमः सम्भवाय च मयोभवाय च नमः शङ्कराय च महेश्वराय च नमः शिवाय च शिवतराय च नमः पार्जाय च वार्जाय च नमः प्रतरणाय चोदरणाय च नमो तीर्थ्याय च कुल्याय च नमः सत्याय च प्रेण्याय च नमः सिद्ध्याय च प्रवजाय च नमः किभुंसिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो हिरण्याय च प्रवद्याय च नमो वर्ज्याय च कोष्ठ्याय च नमः कल्प्याय च गीज्याय च नमो ऋयाय च निवेक्याय च नमः काट्याय च गवरिष्ठ्याय च नमः शुष्काय च हरिद्याय च नमः पांसव्याय च रस्याय च नमो लोप्याय च लप्याय च नमः ऊर्व्याय च सूर्याय च नमः पर्णाय च पर्णसदाय च नमो उग्रमाणाय च विनते च नमः आकितते च प्रकितते च नमो कुकृतिभ्यो धनुष्कृतिव्यसवो नमो नमो वाकिकेभ्यो देवानां मुदेभ्यो नमो विचुनुतेभ्यो नमो विक्षणुतेभ्यो नमः आनिरतेभ्यादापयन्दस्वपते दरिद्रनीलोहित आसां प्रदानामेकां पशूनामाभिर्मारुमोचना किञ्चना ममतात्मा रुद्राय तवसैकपर्दिने जयद्वीराय परामहे मती जता समसदुपदे चतुपदे विश्वं पृष्ठं ग्रामे अस्मिन्ननादुरं मा जाते रुद्रशिवा तनुः शिवा विश्वाभीकजे शिवा ऋतसभीकजे तयानो विडजीवसे परिणो रुद्रसे हे त्रिविणतु परित्वेकस्य दुर्मतिरघायो अवैस्तरामगुद्वस्तनुपाविडोस्तकाय तनयाय विडा विडुष्टम शिव तमो शिवो नः सुमना भवा परमे विक्षमायुधाय निधाय कृतिवसानम् आचर पिनाकां विव्रदागै विकिरिन्द्रं विलोहितं नमस्ते अस्तु भगवः चास्ते सहस्रं एकयो नमस्वपन्तुतः सहस्राणि सहस्रसो बाहुस्तय एतयः तासामीशानो भगवः पराजीना मुखाकृति असङ्ख्याता सहस्राणि जे रुद्रादिभूम्यम्मा देवां सहस्रयोजने वदन्वानि तन्म
ब्रह्मसी सन्मान्त्यर्णवे अन्तरिक्षे भवादि देकांसत्रयोजने वधन्मानि तन्मसि नीलग्रीवासिति कण्ठादिवकुं रुद्रा उपसृताः देकांसत्रयोजने वधन्मानि तन्मसि नीलग्रीवासिति कण्ठाः सर्वाद्या चमाचरः देकांसत्रयोजने वधन्मानि तन्मसि देवृक्षे सक्मिन्दरा नीलग्रीवा विलोहिताः देकांसत्रयोजने वधन्मानि तन्मसि भूतानामधिपतयो विशिकासाः कपर्दिनः देकांसत्रयोजने वधन्मानि तन्मसि पतां प्रतिरक्षैर्वृदायुर्वृदा देकांसत्रयोजने वधन्मानि तन्मसि तीर्थानि प्रचरन्ति सृकास्तानि कङ्गिणः देकांसत्रयोजने वधन्मानि तन्मसि विविदन्ति पात्रे कुपिबतो जनानां देकांसत्रयोजने वधन्मानि तन्मसि जायेतावन्तस भूयांससति सोरुद्रवितश्री देकांसत्रयोजने वधन्मानि तन्मसि नमोऽस्तु रुद्रेभ्यो जेदिवेकां वर्गमिकवः देव्यो दश प्राचीर् दश दक्षिणा दश प्रति चीर्दसो दीचीर्दसोर्ध्वाः देव्यो नमोऽस्तु ते नौ वन्तु ते नौ मिडयन्तु ते जन्म दश नो द्वैतितमेकां जम्बे दद्मः नमोऽस्तु रुद्रेभ्यो जे अन्तरिक्षे जेकां मातैकवः देव्यो दश प्राचीर् दश दक्षिणा दश प्रति चीर्दसो दीचीर्दसोर्ध्वाः देव्यो नमोऽस्तु ते नौ वन्तु ते नौ मिडयन्तु ते जन्म दश नो द्वैतितमेकां जम्बे दद्मः नमोऽस्तु रुद्रेभ्यो जे पृथिव्यामेकां मन्नमिकवः देव्यो दश प्राचीर् दश दक्षिणा दश प्रति चीर्दसो दीचीर्दसोर्ध्वाः देव्यो नमोऽस्तु ते नौ वन्तु ते नौ मिडयन्तु ते जन्म दश नो द्वैतितमेकां जम्बे दद्मः ॐ स्वाहा ॐ भुव ॐ भू अथ षष्ठोऽध्यायः ॐ वयवं सोमवर्तयितौ मनस्तनो कुविव्रतः प्रजावन्तः सचेमहि एकते रुद्रभागः सस्राम्बिकया तञ्जुकस्मा एकते रुद्रभाग आपुस्ते पशुः अवरुद्रामतीमजदे वत्रम्बकं यथा नो वसिष्करद्यथा नः श्रेयस्करद्यथा नो व्यवसायियाता एकजमसि वेकजङ्ग वैश्वाय पुरुकाय वेकजं मा सुखं मेकाय मे केत्रम्बकं यजामहि सुगन्धिं पुष्टिवर्धनं मा पुरुवारुकं यो वन्दनान् मृत्योर्मुक्षीयमामृतात ॐ त्र्यम्बकं यजामहि सुगन्धिं पतिवेदनं मा पुरुवारुकं यो वन्दनान्वितो मुक्षीयमामुतः तते रुद्रावसन्ते परो मुदवतो तीः अवतदन्वा पिनाकावसः कृतिवासायुं सन्नः शिवो तीः त्रायुकं जमदनेः कश्यपस्य त्रायुकं मा जदेवी कुत्रायुकं तन्नौ असु त्रायुकं मा शिवो नामासि स्वदितिस्ते पिता नमस्ते अस्तु मामायि पुंसीः निवर्तयामि आयुकेनाद्याय प्रजननाय राय स्मोकाय स्मृतास्वाय सुवीर्याय अथ सप्तमोऽध्यायः ॐ उग्रस भीम स ध्वान्त स धुनि स सहस्वांस विगुवाच विक्षिपः स्वाहा अग्निगुं हृदये नासनीगुं हृदयाग्रेण पशुपते कृष्णार्जेन भवजग्नाश्रमत्स्नाव्यामीशानमन्यो नामहादेवमन्तः असवीनोग्रं देवं मनिषुना वसिष्ठः नो सिंहीनि कोश्याभ्यां माग्रं लोहितेन मित्रपुं सौवर्तीन् रुद्रं दौर्वर्तीन् नेत्रं परकीडेन मरुतो बलेन साध्यान् प्रमुद भवस्य कण्ठकुं रुद्रस्यान्तः पार्श्व्यां महादेवस्य कृषवस्य वनिष्ठो पशुपतेः पुरी तथा लोमभ्या स्वाहा त्वचि स्वाहा त्वचि स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा मागुंसेभ्यः स्वाहा मागुंसेभ्यः स्वाहा नावव्यः स्वाश्नावव्यः स्वास्तव्यः स्वास्तव्यः स्वाहा मव्यः स्वाहा मव्यः स्वाहा प्रीतसि स्वाहा पायवि स्वाहा आयासाय स्वाहा प्रयासाय स्वाहा सञ्जासाय स्वाहा व्यासाय स्वाहो व्यासाय स्वाहा शुचि स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा तपसि स्वाहा तपते स्वाहा तपमानाय स्वाहा तप्ताय स्वाहा कर्माय स्वाहा निष्कृते स्वाहा प्रयासिते स्वाहा वेगजाय स्वाहा यमाय स्वाहा तकाय स्वाहा मृतवे स्वाहा ब्रह्मणि स्वाहा ब्रह्मत्यायि स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा ध्यावा पृथिव्यां पुं स्वाहा अथष्टमोऽध्यायः ॐ वाज समे प्रसव समे व्यति समे प्रसीति समे धीति समे कर्तु समे स्वर समे श्लोक समे सर्व समे श्रुति समे ज्योति समे स्व समे जगेन कल्पन्ताम् प्राण समे पान समे व्यान समे सुसमे चितं च आदितं च मे वाच मे मन समे चक्षु समे श्रोत्रं च मे दश समे बलं च मे जगेन कल्पन्ताम् ओज समे सहस्रमात्मा च मे तनु समे शर्म च मे वर्म च मे गानि च मे स्त्रीणि च मे परोगुणि च मे शरीराणि च आयुष मे जरा च मे जगेन कल्पन्तां मा ज्येष्ठं च आधिपत्यं च मे मनुष्य मे भामस मे मस मे वस मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्तिमा च मे दात्रिमा च मे वृतं च मे वृतिश मे जगेन कल्पन्तां मा सत्यं च मे सदा च मे जगं च मे धनं च मे विश्वं च मे महस मे क्रीडा च मे मोदस मे जातं च मे जनिकमाणं च मे सुप्तं च मे सुकृतं च मे जगेन कल्पन्तां मा ऋतं च मे मृतं च मे यक्षं च मे नामि च मे जीवातुष मे दीर्घायुं च मे नमित्रं च मे भयं च मे सुखं च मे शयनं च मे सुपास मे सुदिनं च मे जगेन कल्पन्तां मा जन्ता च मे धर्ता च मे क्षेमस मे धृतिस मे विश्वं च मे महस मे संवित मे ज्ञात्रं च मे सूस मे प्रसूस मे सीरं च मे लयस मे जगेन कल्पन्तां मा सञ्च मे मयस मे प्रियं च मे नुकामस मे कामस मे सोमनस मे भगस मे दर्विणं च मे भद्रं च मे श्रेयस मे वसीयस मे दशस मे जगेन कल्पन्तां मा ऊक्ष मे सूनृता च मे पयस मे रसस मे घृतं च मे मधु च मे सकृश मे सपीति च मे कृटि च मे वृक्ष मे जयत्रं च महोद्वितीयं च मे जगेन कल्पन्तां मा रयिस मे रायस मे पुष्टं च मे पुष्टि च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे चितं च मे नं च मे शुच मे जगेन कल्पन्तां मा वितं च मे वेद्यं च मे भूतं च मे भविष्य च मे सुखं च मे सुपत्यं च मे हृदं च मरिति च मे कृलितं च मे कृलिति च मे मति च मे सुमति च मे जगेन कल्पन्तां मा प्रियश्च मे जवास मे माकास मे तिलास मे मुदगास मे कल्वास मे पीडवस मे णवस मे श्यामाकास मे नीमारास मे गोधूमास मे मसूरास मे जगेन कल्पन्तां मा अस्मात् मे मृतिका च मे गृहस्थ मे प्रोतास मे सिकतास मे वनस्पतयश्च मे हिरण्यं च मे दशस मे श्यामं च मे लोहं च मे शीशं च मे त्रपु च मे जगेन कल्पन्तां मा अग्निसमापस मे वृद्धस्थ मोकदयश्च मे कृषपत्याश्च मे कृषपत्याश्च मे ग्राम्यास्त मे पशवारण्यास्त मे गीतं च मे गीति स मे भूतं च मे भूति स मे जगेन कल्पन्तां मा वसु च मे वसति स मे कर्म च मे सति स मे अर्थ स मे एमस मे इत्याच मे गति स मे जगेन कल्पन्तां मा अग्निशम इन्द्र स मे सोम स म इन्द्र स मे सविता च म इन्द्र स मे सरस्वती च म इन्द्र स मे कूपा च म इन्द्र स मे बृहस्पती च म इन्द्र स मे जगेन कल्पन्तां मा मित्र स म इन्द्र स मे वरुण स म इन्द्र स मे धाता च म इन्द्र स मे त्वष्टा च म इन्द्र स मे मरुत स म इन्द्र स मे विश्वे च मे देवा इन्द्र स मे जगेन कल्पन्तां मा पृथ्वी च म इन्द्र स मे अन्तरिक्ष च म इन्द्र स मे द्योत स म इन्द्र स मे समा स म इन्द्र स मे नक्षत्राणि च म इन्द्र स मे दिश स म इन्द्र स मे जगेन कल्पन्तां मा अपुंसु स मे रश्मि स मे दाव्य स मे धिपति स मे उपापुंस मेन्द्रजाम स मे इन्द्रवायव स मे मैत्रावरुण स मे आसिन स मे प्रतिप्रतान स मे शुक्र स मे मन्ति च मे जगेन कल्पन्तां मा आघ्रण स मे वैश्वदेव स मे ध्रुव स मे वैश्वानर स मे इन्द्राग्न स मे महावैश्वदेव स मे मर्त्वकीया स मे निष्केवल्या स मे सावित्र स मे सारस्वत स मे वाग्निवत स मे आर्योजन स मे जगेन कल्पन्तां मा सुरुचस्स मे तमसा स मे वायव्याय च मे द्रोणकल स मे ग्रावण स मे धीग्मणे च मे भूतभृतम आदवनीया स मे वेदि स मे वर्षि स मे वृत स मे स्वदाकार स मे जगेन कल्पन्तां मा अग्नि स मे घर्म स मे अर्क स मे सूर्य स मे प्राण स मे स्वमेधा स मे पृथ्वी च मे दिति स मे दिति स मे द्यौ स मे कुलया स करयो दिश स मे जगेन कल्पन्तां मा ऋतं च मऋतव स मे तप स मे संवत्सर च मे होरात्रि उर्वष्टिवे बृहद्रथन्तरे च मे जगेन कल्पन्तां मा एका च मे तिस्रस्स मे तिस्रस्स मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च मे एकादश च मे एकादश च मे द्व्योदश च मे द्व्योदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च मे एकविंशति च मे एकविंशति च मे द्व्योविंशति च मे द्व्योविंशति च मे पञ्चविंशति च मे पञ्चविंशति च मे सप्तविंशति च मे सप्तविंशति च मे नवविंशति च मे नवविंशति च मे एकत्रिंश च मे एकत्रिंश च मे त्रयस्त्रिंश च मे जगेन कल्पन्तां मा चतुरस्त मेष्टौ च मेष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विंशति च मे विंशति च मे चतुर्विंशति च मे चतुर्विंशति च मे अष्टाविंशति च मे अष्टाविंशति च मे द्वात्रिंश च मे द्वात्रिंश च मे षड्त्रिंश च मे षड्त्रिंश च मे चत्वारिंश च मे चत्वारिंश च मे चतुश्चत्वारिंश च मे चतुश्चत्वारिंश च मे अष्टाचत्वारिंश च मे जगेन कल्पन्तां मा त्रयोविंश मे त्रयोविंश च मे त्यवार्च मे द्वितीयोहि च मे पञ्चाविंश मे पञ्चाविंश मे त्रिवस मे त्रिवसा च मे त्रिजवार्च मे त्रिजोहि च मे जगेन कल्पन्तां मा अष्टवार्च मे पुष्टोहि च मे उक्षा च मे वसा च मे ऋगवस मे वेह च मे नडवास मे धेनुस मे जगेन
निजीर्ण कल्पन्ताम् वाजाय स्वाहा प्रसवाय स्वाहा बीजाय स्वाहा कृतवे स्वाहा वसवे स्वाहा अर्पतये स्वाहेन्मुदाय स्वाहा मुदाय विनगुंसिनाय स्वाहा विनगुंसिन आन्त्यायनाय स्वान्त्याय भुवनाय स्वाहा भुवनसपतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा इयन्ते राणि मित्रायं तास्य मना ऊर्जे त्वम् इष्टये त्वां प्रजानां त्वाधिपत्याय आयुर्जगेन कल्पन्तां प्राणो जगेन कल्पन्तां चक्षुर्जगेन कल्पन्तां श्रोत्रं जगेन कल्पन्तां वाग्जगेन कल्पन्तां मनोजगेन कल्पन्तां आत्माजगेन कल्पन्तां ब्रह्माजगेन कल्पन्तां ज्योतिर्जगेन कल्पन्तां पुसुर्जगेन कल्पन्तां पिष्टं जगेन कल्पन्तां जग्यो जगेन कल्पन्तां वा तोमस्य यजुसर्गच साम च विरचरथन्तरं च स्वर्देवा अगन्मामृता अहुं प्रजापतेः प्रजामो वेट् स्वाहा शान्त्यध्यायः ॐ ऋचं वाचं प्रपदे मनोजजुः प्रपदे साम प्राणं प्रपदे चचुः श्रोत्रं प्रपदे वागोजः सहोजो मयि प्राणापान जन्मे चिरं चक्षुतोर्जस मनसो वाति तृणं ह्रियस्वतृणे दधातु सन्नो भवतु भुवनस जस्वतिः भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् कया नक्षत्र आभूवदूते सदा भृतः सखा कया सचिष्टया भृता कस्वा सत्यो मदा नामाविष्टो मत्सदन्दसः दृढाचिदारुजि वसु अविगुणः सखी नामविता जरित्रिणां मा सतं भवा स्यूतिभिः कया त्वन्मुद्या विप्रमन्दसे वृखना कया स्तोत्रिव्य आवरा इन्द्रो विश्वस्य राजति सन्नो असु विपदे सञ्चतुपदे सन्नो मित्रः संवरुणः सन्नो भवन्प्रजमा सन्न इन्द्रो बृहस्पतिः षण्णो विष्णुरुक्रमः सन्नो वातः पवतां सन्नस्तपतु सूर्यः सन्नः कनिकृद्देवः प्रजन्यो अभिवर्गतु महानि सम्भवन्तु नः सभुं रात्रिः प्रतिधीयता मा सन्न इन्द्राग्नि भवता बहुभिः सन्न इन्द्रा वरुणा रातव्या सन्न इन्द्रा पूकणा वाजसातु समिन्द्रा सोमं सुविताय सञ्जोः सन्नो देवि रविष्ठयापो भवन्तु पीतये सञ्जो रविस्रवन्तु नः स्यो ना पृथिविनो भवानिक्षरा निवेशनी चानः सर्वसप्रताः आपो इष्टामयो भुवस्तान ऊर्जे ददातनामहीरणाय चषसेजो वः शिवतमो रसतस्य वाजयते हनः सतीरिव मातरः तस्मा अरङ्गमामवोचसि छयाय जिन्वता आपो जनयता च नः योः शान्तिरन्तरिक्षगुं शान्तिः पृथिवी शान्तिरापः शान्तिरोभदयः शान्तिः वनस्पतयः धात्रिविश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वगुं शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि धृते त्रिगुङ्गमा मित्रस्यामां चचुपा सर्वाणि भूतानि समीक्षन्तां मा मित्रस्या चचुपा सर्वाणि भूतानि समीक्षे मित्रस्या चचुपा समीक्षामहे धृते त्रिगुङ्गमा ज्योक्ते सन्धृशिजिव्या संयोक्ते सन्धृशिजिव्या सम्मा नमस्ते हरसे शौचिके नमस्ते अस्वचिके अन्यास्ते अस्मत्पन्तु हेतयः पावको अस्मव्यगुं शिवो भव नमस्ते अस्तु विदुते नमस्ते स्तनित्नवे नमस्ते भवनस्तयतः स्वासमीहसे यतो यतः समीहसे ततो नो अवयं कुरु षण्णः कुरु प्रजाभ्यो भयन्नः वसुव्याः सुमित्र्या न आपोपदयः सन्तु दुर्मित्र्या तस्मै सन्तु जोऽस्मान् द्वेष्टिदं दं वयं दुग्मः तच्चक्षुते वहितं पुरसा चुक्रमुचरत असेम शरदः शतं जीवेम शरदः शतं शृणुयाम शरदः शतं प्रर्वाम शरदः शतमदीनाः स्याम शरदः शतं भूयस शरदः सतात अथ स्वस्ति प्रार्थना मन्त्राः हरिः ॐ मा स्वस्ति न इन्द्रो बृहदसर्वाः स्वस्ति नः पूका विश्ववेदाः स्वस्ति नस्तारिक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ पयः पृथिव्यां पय ओखदी कुपयो दिव्यन्तरिक्षे पयो दाः वयस्पतिः प्रदिशः सन्तु मह्यम् ॐ विष्णोरराटमसि विष्णोः सनपुत्रे स्थो विष्णोः स्यूरसि विष्णो ध्रुवोऽसि वैष्णवमसि विष्णवे अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता दिव्या देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॐ सद्यो जातं प्रवद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भवस्य मां भवोद्भवाय नमः ॐ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः बालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलरुद्राय नमः सर्वभूतमनाय नमो मनोन्मनाय नमः अभूरिभ्यो तभूरिभ्यो भोर्भोर्तरेभ्यः सर्वेभ्यः सर्वसर्पेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो मा ॐ शिवो नामासिस्वदिति स्ते पिता नमस्ते अस्तु मामाहि पुंसि निवटयाम्यायुकेनाद्याय प्रजननाय राय स्वोकाय स्मृतास्वाय सुवीर्जाय ॐ विश्वानि देव सवितुर्दुहितानि परासुवाच भद्रन्तर्न आसुवात् ॐ द्योः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोपदयः शान्तिः वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वगुं शान्तिः शान्तिरेव शान्तिः क्षामा शान्तिरेधि ॐ सर्वेषाम् ऐकवेदानम् रसोजस्साम सर्वेषामेवेदानां रसेना विकिञ्चति ॐ शान्तिः शान्तिः शान्तिः।